ओम नमो भगवते वासुदेवाय। अथैकादशोऽध्यायः। शौनक उवाच, अथेममर्थं पृच्छामो भवन्तं बहुवित्तमं। समस्ततन्त्रराद्धान्ते भवान् भागवत तत्त्ववित्। तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः। अङ्गोपाङ्गायुधा कल्पं कल्पयन्ति यथा च यैः। तन्नो वर्णय भद्रन्ते क्रियायोगं बुभुत्सताम्। येन क्रिया नैपुणेन मर्त्यो यायादमर्त्यताम्। सूत उवाच, नमस्कृत्य गुरून् वक्ष्ये विभूतिर्वैष्णवीरपि। याः प्रोक्ता वेदतन्त्राभ्यामाचार्यैः पद्मजातिभिः। मायाद्यैर्नवभित्तत्वैः सविकारमयो विराट्। निर्मितो दृश्यते यत्र सचित्के भुवनत्रयम्। एतद्वै पौरुषं रूपं भूपादौ द्यौ शिरो नपः। नापि सूर्योक्षिणी नासे वायुः कर्णौ दिशः प्रभोः। प्रजापतिः प्रजननमपानो मृत्युरीशितुः। तद्बाहवो लोकपाला मनश्चन्द्रो भ्रुवौ यमः। लज्जोत्तरो धरो लोभो दन्ताद्योत्स्नास्मयो भ्रमः। रोमाणि भूरुहा भूम्नो मेघाः पुरुषमूर्धजाः। यावानयं वै पुरुषो यावत्या संस्थयामितः। तावानसावपि महापुरुषो लोकसंस्थया। कौस्तुभव्यपदेशेन स्वात्मज्योतिर्विभर्त्यजः। तत्प्रभाव्यापिनी साक्षात् श्रीवत्समुरुसा विपुः। स्वमायां वनमालाख्यां नानागुणमयीं दधत्। वासच्छन्दोमयं पीतं ब्रह्मसूत्रं त्रिवृत्स्वरम्। विभर्ति साङ्ख्यं योगं च देवो मकरकुण्डले। मौलिं पदं पारमेष्ठ्यं सर्वलोकाभयङ्करम्। अव्याकृतमनन्ताख्यमासनं यदधिष्ठितः। धर्मज्ञानादिभिर्युक्तं सत्त्वं पद्ममिहोच्यते। ओजसहो बलयुतं मुख्यतत्त्वं गदां दधत्। अपां तत्त्वं दरवरं तेजस्तत्त्वं सुदर्शनम्। नभो निभं नभस्तत्त्वमसिं चर्म तमोमयम्। कालरूपं धनुषार्ङ्गं तथा कर्ममये सुधिम्। इन्द्रियाणि शरानाहुराकूतीरस्य स्यन्दनम्। तन्मात्राणि यस्याभिव्यक्तिं मुद्रयार्थक्रियात्मताम्। मण्डलं देवयजनं दीक्षा संस्कार आत्मनः। परिचर्या भगवत आत्मनो दुरितक्षयः। भगवान् भगशब्दार्थं लीलाकमलमुद्वहन्। धर्मं यशश्च भगवांश्चामरव्यजने भजत्। आतपत्रं तु वैकुण्ठं द्विजाधामा कुतो भयम्। त्रिवृद्वेदः सुपर्णाख्यो यज्ञं वहति पूरुषम्। अनपायिनी भगवती श्रीसाक्षादात्मनो हरेः। विश्वक्सेनश्चन्द्रमूर्तिर्विदितः पार्षदाधिपः। नन्दादयोष्टौ द्वास्थाश्च तेणिमाद्या हरेर्गुणाः। वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम्। अनिरुद्ध इति ब्रह्मन् मूर्तिव्यूहोऽभिधीयते। स विश्वस्तैजसः प्राज्ञस्तुरीय इति वृत्तिभिः। अर्थेन्द्रियाशयज्ञानैर्भगवान् परिभाव्यते। अङ्गोपाङ्गायुधा कल्पैर्भगवांस्तच्चतुष्टयम्। बिभर्ति स्म चतुर्मूर्तिर्भगवान् हरिरीश्वरः। द्विजऋषभस एष ब्रह्मयोनिः स्वयं दृक्। स्वमहिमपरिपूर्णो मायया च स्वयैतत्। सृजति हरति पातीत्याख्ययानावृताक्षो। विवृत इव निरुक्तस्तत्परैरात्मलभ्यः। श्रीकृष्ण कृष्ण सखवृषभावनिधृग्। राजन्यवंशदहनानपवर्गवीर्य। गोविन्द गोपवनिता व्रजभृत्यगीत। तीर्थश्रवः श्रवणमङ्गलपाहि भृत्यान्। य इदं कल्य उत्थाय महापुरुषलक्षणम्। तच्चित्तः प्रयतो जप्त्वा ब्रह्मवेदगुहाशयम्। शौनक उवाच, शुको यदाह भगवान् विष्णुराताय शृण्वते। सौरो गणो मासि मासि नानावसति सप्तकः। तेषां नामानि कर्माणि संयुक्तानामधीश्वरैः। ब्रूहिणः शब्दधानानां व्यूहं सूर्यात्मनो हरेः। सूत उवाच, अनाद्यविद्यया विष्णोरात्मनः सर्वदेहिनां। निर्मितो लोकतन्त्रोऽयं लोकेषु परिवर्तते। एक एव हि लोकानां सूर्यात्मादिकृद्धरिः। सर्ववेदक्रियामूलमृषिभिर्बहुधोदितः। कालो देशः क्रियाकर्ता करणं कार्यमागमः। द्रव्यं फलमिति ब्रह्मन् नवधोक्तो जया हरिः। मध्वादिषु द्वादशसु भगवान् कालरूपधृक् लोकतन्त्राय चरति पृथग्द्वादशभिर्गणैः धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने पुलस्य स्तुम्बुरुरिति मधुमासं नयन्त्यमे अर्यमा पुलहोथौजाः प्रहेतिः पुञ्जिकस्थली नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् मित्रोत्रिः पौरुषेयोऽथ दक्षकोमेन काहः रथस्वन इति येते शुक्रमासं नयन्त्यमे वसिष्ठो वरुणो रम्भा सहजन्यस्तथाहुः शुक्रश्चित्रस्वनश्चैव श्रुतिमासं नयन्त्यमे इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाङ्गिराः प्रम्लोचाराक्षसो वर्यो नभो मासं नयन्त्यमे विवस्वानुग्रसेनश्च व्याघ्र आचारणो भृगुः अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्यमे पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा घृताची गौतमस्येति तपो मासं नयन्त्यमे क्रतुर्वर्चा भरद्वाजः पर्जन्यः सेनजित्तथा विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमे अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमे भगस्फूर्जोरिष्टनेमिरूर्ण आयुश्च पञ्चमः कर्कोटकः पूर्वचित्तिः पुष्यमासं नयन्त्यमे त्वष्टारिचीकतनयः कम्बलश्च तिलोत्तमा ब्रह्मापेतोऽथ शतजित् धृतराष्ट्रैशम्भराः विष्णुरश्वतरोरम्भा सूर्यवर्चाश्च सत्यजित् विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमे एता भगवतो विष्णोरादित्यस्य विभूतयः स्मरतां सन्ध्ययोर्नृणां हरन्त्यं हो दिने दिने द्वादशस्वपि मासेषु देवोऽसौ षड्भिरस्य वै चरन् समन्तात्तनुते परत्रेह च सन्मतिं सामर्यजुर्भिस्तल्लिङ्गैर्ऋषयः संस्तुवन्त्यमुम् गन्धर्वास्तं प्रकायन्ति नृत्यन्तप्सरसोग्रतः उन्नयन्ति रथं नागा ग्रामण्यो रथयोजकाः चोदयन्ति रथं पृष्ठे नैरृता बलशालिनः वालखिल्या सहस्राणि षष्टिर्ब्रह्मर्षयो मलाः पुरतोऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर्विभुम् एवं यनाधिनिधनो भगवान् हरिरीश्वरः कल्पे कल्पे स्वमात्मानं व्यूह्य लोकानवत्यजः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वादशस्कन्धे आदित्यव्यूहविवरणम् नामैकादशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।